तस्माद्यज्ञात् सर्वहुतः अर्जस्वामानिजज्ञिरे छन्दागुंसि जज्ञिरे तस्माद् एतस्तस्मादजायत तस्मादश्वा अजायन्त ये ते चो भयादतः गावो हजज्ञिरे तस्माद् तस्माज्जाता अजावयः यत्पुरुषम् यदधुः प्रतिधाव्यकल्पयन् मुखम् किमस्य कौ बाहो कामोरूपादा उच्यते ब्राह्मणस्य मुखमासीत् बाहूराजन्यः कृतः ऊरोदस्य यद्वैश्यः पद्भ्यागुम् श्रोत्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रीष्णोर्जौ समवर्तत पद्भ्याम् भोमिर्दिश श्रोत्रात् तथा लोकानम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदनुयदासे धाता पुरस्ताद्यमुदा जहार शक्रः प्रभिद्वान् प्रतिशस्यतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यः सम्भोतः पृथिव्यैरसाच्य विश्वकर्मणः समवर्तताधि तस्य त्वष्टापि दधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्ताद् तमेवम् विद्वानमृत इह भवति नान्यः पन्था युध्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमाना बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति मेधसः यो देवेभ्य आगपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमारुजाय ब्राह्मये ऋजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणा विद्याद् तस्य देवा असंवसे श्रीश्चले लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ यात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण तच्छञ्जोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्ना अस्त्वद्विपदे शञ्चतुष्पदे ॐ शान्तिश्शान्तिश्शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम् ताम् सोऽस्मिताम् हिरण्यप्राकारमार्द्राञ्जुलम् वीम् तृप्ताम् तर्पयन्तीम् पद्मेष्ठिताम् पद्मवह्नाम् तामिहो बह्मये श्रियम् चन्द्राम् प्रभासाञ्जसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रवद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽध बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देव सखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमुद्धिम् ददातु मे शुक्तिपादामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वाणि निर्नदमे गृहान् गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ईश्वरीकम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमजीमहे पशूनाकुम् रूपमन्नस्य महि श्रीश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपस्रजन्तस्निग्धानि चिक्लीतवस मे गृहे मितदेवीम् मातरम् दृशम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह आर्द्राम् यः करिणीम् जष्टिम् पिङ्गळाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् मावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वानविन्देयम् पुरुषानहम् यश्रियप्रयतो भूत्वा जुहुयालाद्यमन्नहम् श्रियः पञ्चदशर्जञ्ज श्रीकामस्त तदञ्जपेद आनन्दः कर्दमश्चैव चिक्लीत इति विश्रुताः ऋषयस्ते त्रयः पुत्राः स्वयम् श्रीदेव देवता पद्मानने पद्मभूरो पद्माक्षी पद्मसम्भवे त्वम् भयस्त पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायि च गोदायि हरधायि महाधने धनम् मे जुषताम् देवीम् सर्वकामार्थसिद्धये पुत्रपौत्रधनम् धान्यम् हस्त्यश्वाजा विगोरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् चन्द्राभाल्लक्ष्मीमीशानाम् सूर्याभाम् श्रियमेश्वरीम् चन्द्रसूर्याग्निसर्वाभाम् श्रीमहालक्ष्मीमुपास्महे धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैरदेय सोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनी न क्रोधो न जमात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षम् सुदेविभावरिदिवो अभ्रस्य विद्युतः ोऽहम् सर्वबीजान्यपब्रह्मद्विषो यिः पद्मप्रिये पद्मनि पद्महस्ते पद्मालये पद्मदलाय काक्षे विश्वप्रिये विष्णुमनोनकूले त्वत्पादपद्मम् महिषम् निधत्स्व यासा पद्मासनस्थामि विलगटितटे पद्मपत्राय काक्षे गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्माभिधाहेवरुम्भैः निच्चं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववलिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मेर्मोक्षलक्ष्मेर्जयलक्ष्मीः सरस्वती श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा पराङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभान् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीन्द्राम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात्।